संस्कृति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। सर्वकारेण कोरोना विषाणो संक्रमणस्य निरोधन नियन्त्रणयोः कृते क्रियान्वितं परिपिधानं गतरात्रौ द्वादशवादनतः समाप्तं वर्तते। मन्त्रिपरिषदः परह्यः उपविष्टस्य निर्णयान् सार्वजनिकर्तुं ह्यः सिंहप्रासादे आयोजिते पत्रकार सम्मेलने सर्वकारस्य प्रवक्ता अर्थसञ्चार सूचना प्रविधि मन्त्री डॉ युवराज खतिवड़ा गत चैत्र मासस्य एकादश दिवसात् क्रियान्वितं परिपिधानम् अन्तयितुं निर्णीतम् अस्तीति अज्ञापयत्। मन्त्री डॉ खतिवड़ा क्रियान्वितस्य परिपिधानस्य अन्तेन सह नैज यातायात साधनेषु क्रियान्वित सम विषमांक प्रणाली अन्ता भवति। कार्यालयाः नियमितरूपेण पूर्वाह्नस्य दशवादनात् सायं पञ्चवादनं यावत् सञ्चलन्ति। अन्य आर्थिक गतिविधयश्च सुचारुतया सञ्चलन्तीति च अवदत्। परिपिधानम् अन्तिकृतं सदपि अस्यैव श्रावण मासस्य द्वात्रिंशत् दिवसं यावत् नेपाल प्रवेशस्य सम्पूर्णः प्रवेशबिन्दवः विदापिताः भवितारः एवं अत्यावश्यकं विहाय सर्वाणि गमनागमनानि स्थगयितुं मन्त्रिपरिषदः उपवेशने निर्णीतं वर्तते। उपवेशने जनस्वास्थ्य सुरक्षायाः मापदण्डं प्रपूर्य अस्यैव श्रावणस्य पञ्चदश दिवसतः अतिथिसदन भोजनालय पदयात्रा परिभ्रमण प्रवृत्तिभ्यः पर्यटनेन सह सम्बद्धेभ्यो व्यवसायेभ्यः सञ्चालनानुमतिं दातुं निर्णीतं वर्तते। परम् अतिथिसदनोत्सवायोजन स्थल भोजनालयेषु सभा सम्मेलन समारोहः अपर निर्णयनाभावं यावत् निषिद्धः सन्तीति मन्त्री डॉ खतिवड़ा असूचयत्। एवमेव उपवेशेन भाद्रमासस्य प्रथमदिवसात् दीर्घ मध्यमाल्पदूरीणां साधनानि आन्तरिकबाह्योड्डयनानि क्रीडायाः नियमित प्रशिक्षणानि विद्यालयेषु महाविद्यालयेषु च छात्रपञ्जीकरणं परीक्षासञ्चालनं परिणाम प्रकाशनं चेति गतिविधीन् स्वास्थ्य सुरक्षां सावधानतां च अवलम्ब्य सञ्चालयितुं निर्णीतमस्ति। विद्यालयेषु महाविद्यालयेषु च विधातव्यं नियमित पठन पाठनं समूहे विधातव्यायाः क्रीडायाः गतिविधयः चलचित्र भवन शारीरिक व्यायामशाला केशकर्तनशाला पुस्तकालय धार्मिक स्थल प्रवृत्ति क्षेत्राणि च अपर निर्णयस्य असम्पादनं यावत् पिधापनावस्थायामेव स्थीयन्ते इति मन्त्री डॉ खतिवड़ा अबोधयत्। मन्त्रिपरिषदः उपवेशेन जल विप्लव भूस्खलन जलमग्नतासु निपत्य आहतानां व्यक्तिनां सम्पूर्णोपचार व्ययं प्रदातुं मृतकानां सम्बन्धिजनेभ्यः परिवारेभ्यश्च सहायतां प्रदातुं प्रभावित क्षेत्रेषु अन्येषां रोगाणां प्रकोपस्य निवारणाय आवश्यकौषधोपकरण सहितानां स्वास्थ्यकर्मिणां समूहान् प्रेषयितुं च निर्णीतमस्तीति मन्त्री डॉ खतिवड़ा अभाषत। एवमेव उपवेशेन सर्वकारीय कर्मचारिणाम् आधिकारिक ट्रेड यूनियन संघस्य निर्वाचनाय सहसचिवं कलानिधि पौडेलं प्रमुख निर्वाचनाधिकृतं निर्धारयितुं प्रमुख निर्वाचनाधिकृतस्य कार्यालय काष्ठमण्डपे स्थापयितुं निर्वाचनस्य असम्पन्नतावधिं यावत् प्रमुख निर्वाचनाधिकृतस्य कार्यालये स्थातव्यानां विभिन्नानां ऊनविंशते कर्मचारिणां पदसंख्यां स्वीकर्तुं च निर्णीतम् अस्तीति सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री डॉ खतिवड़ा समसूचयत्। देशस्य विभिन्नेषु स्थानेषु दुरापन्नेन भूस्खलनेन ह्य अतिरिक्ताः नवजनाः मृताः सन्ति। भूस्खलनेन काष्ठमण्डपस्य टोखा नगरपालिकाया पासीडाँडा स्थाने द्वौ धादिङ जनपदस्य त्रिपुरा सुन्दरी ग्रामपालिकायाः षष्ठवडा क्षेत्रस्य गोलाङपुरी वने त्रयः नवलपरासी बर्दघाट सुस्तापूर्व जनपदस्य बुलिङटार ग्रामपालिकायाः द्वितीयवडा क्षेत्रस्य टाँडी स्थाने द्वौ दार्चुला जनपदस्य मालिकार्जुन ग्रामपालिकायाः अष्टमवडा क्षेत्रस्य ओडा खान स्थाने द्वौ च जनाः मृताः सन्ति। दिनद्वयात् अविरल वृष्टेः कारणेन काष्ठमण्डपोपत्यकया सहितानां देशस्य प्रायो भूभागानां जनजीवनं प्रभावितम् अस्ति। बहुषु स्थलेषु जलविप्लव भूस्खलनानि दुरापन्नानि विभिन्नाः राजमार्गाः अवरुद्धाश्च वर्तन्ते। वृष्टेः निरन्तरतायाः कारणेन उचित सावधानताम् अवलम्बितुं राष्ट्रिय विपद संकट न्यूनीकरण व्यवस्थापन प्राधिकरणेन अनुरुद्धमस्ति। जलविप्लव पूर्वानुमान महाशाखाया अनुसारेण परह्यः दिनात् नारायणी नद्या कोशी नद्या च संकटस्य स्तर अतिक्रान्तो वर्तते। बहुशः स्थानानि जलमग्नानि च सन्ति। भरतपुरवर्तिना देवघाट क्षेत्रीय जलविप्लव मापन केन्द्रस्य प्रमुखस्य जलविज्ञस्य राम विकेश या रायस्य अनुसारेण नारायणी नद्याः जलप्रवाह गतदिने चतुश्चत्वारिंशतो वर्षाणां पश्चात् मापने 91 मीटर मितम् उपरि प्राप्तोस्ति। उपत्यकायाः बागमती नित्याः सहायक नदीनां च तटीय क्षेत्राणि उच्च संकटे सन्ति। कंकाई, कमला, बागमती, पश्चिम राप्ती, बबई नदीसु एतासां सहायक नदीसु च जलप्रवाह वर्धनस्य क्रमे वर्तते। कर्णाली महाकाली नद्योश्च जलप्रवाह प्रवर्धते इत्यतः सावधानताम् अवलम्बितुम् जलविप्लव पूर्वानुमान महाशाखया सर्वे अनुरुद्धः सन्ति। अविरल वृष्टे अनन्तरं दुरापन्नेन भूस्खलनेन लमजुङ जनपदस्य मर्स्याङ्दी ग्रामपालिकायाः तृतीय वडा क्षेत्रस्य पल्लोटारी ग्रामस्य आसन चतुस्सप्तति परिवाराः विस्थापिताः सन्ति। ग्रामस्य उपरि दुरापन्नस्य भूस्खलनस्य कारणात् ग्राम एव विस्थापितो स्थिति वडाध्यक्ष प्रेम बस्नेत अज्ञापयत्। कतिचित दिनेभ्यः निरन्तरं वृष्टे पश्चात् दुरापन्नेन जलविप्लवेन ताप्लेजुङ जनपदस्य फत्तालुङ ग्रामपालिकायाः सप्तवडा क्षेत्रस्य ओलाङचुङ गोलास्थाने तमोर नद्या सेतुद्वयं प्रवाहितमस्ति। परह्य दुरापन्नेन जलविप्लवेन हिमालयस्य ओलाङचुङ गोला ग्रामस्य दाङजेन गोलापरि ग्रामयोजकः सेतु, गोलाग्रामस्य पापुङ ग्रामयोजकः काष्ठसेतुश्च प्रवाहितौ स्त इति सप्तमवडा क्षेत्रस्य वडाध्यक्ष छेतिङ बालुङ अज्ञापयत्। सोमवासरस्य रात्रिता दुरापन्नः अविरल वर्षाः अनु पृथ्वीराजमार्गस्य बहुषु स्थानेषु भूस्खलनस्य कारणेन अवरुद्ध मोलिङ पोखरा मार्गखण्ड गतरात्रौ अष्टवादनतः पुनः सञ्चालितो वर्तते। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य स्थायी समिते ह्यस्तनोपवेशेन जल विप्लव भूस्खलनयोः निपतितानां जनानां सहयोगधार कार्येषु प्रवर्तनायै जनप्रतिनिधयः नेतारः कार्यकर्तारश्च निर्दिष्टाः सन्ति इति समाचारः।